सु महिलासु भारते पुष्पासनम् आगताः ते युद्धार्थं पुंसः प्रेरितः तथा च वीरेषु क्रोधे स्थाविता सम्यक् सम्बन्धनाय अनुप्युक्ताः अनुप्युक्ताः अधुना अस्माकिनाः स्त्रिया विद्यालये रतं कुर्वन्ति भविष्यस्य निर्माणं स्वदेशस्य निर्माणे वयं सहदा स्त्रिया क्षमस्त्रिया ग्रहिता यत्र शिक्षा वार्तालाभस्य शिक्षा ग्रहिता च यत्र आवां सनातुं शक्नोति रात्रौ अस्माकं जीवनं भालकाः आवां सनातुं शक्नोति रात्रौ अस्माकं जीवनं भालकाः अस्माकं जीवनं भालकाः अस्माकं जीवनं भालकाः महिला भारते सन्धिदेशां कृते तत्र पुष्पासनम् कर्णे द्वयं भारतं श्रुता ते शक्तिप्रदर्शने सदैव ग्रसाराः मयि स्मरणं कीदृशं भारतं पुरा चित्राणि मां पार्श्वे संरक्षितम् अधुनेच्छामि मा पीडितं च हसन्ति बालकाः इदानीम्